సాయి శ్రోతలకు సాయిరాం. మరికొద్దిసేపట్లో ప్రశాంతి నిలయంలోని సాయి కుల్వంత్ సభామండపం నుండి ప్రత్యక్ష ప్రసారాలను మీరు వింటారు. దయచేసి వేచి ఉండండి. Live broadcast of the proceedings from the Sai Kulwant Hall at Prashanti Nilayam will follow shortly. Please stay tuned. శ్రోతలకు సాయిరాం. మరికొద్దిసేపట్లో ప్రశాంతి నిలయంలోని సాయి కుల్వంత్ సభామండపం నుండి ప్రత్యక్ష ప్రసారాలను మీరు వింటారు. దయచేసి వేచి ఉండండి. Dear listeners, live broadcast of the proceedings from the Sai Kulwant Hall at Prashanti Nilayam will follow shortly. Please stay tuned.
సాధనం ప్రణో దేవీ సరస్వతే వాజే వాజినేవతే నీనామ విత్రయవతో గణేశాయ నమః సరస్వత్యై నమః శ్రీగురుభ్యో నమః హరిః ఓం. ఓం నమో భగవతే రుద్రాయ. ఓం నమస్తే రుద్రమన్యవ ఉతోత ఇషవే నమః. నమస్తే అస్తు ధన్వనే బాహుభ్యా मुतते नमः। यात इष शिवतमा शिवं बभूवते धनुः शिवाशरव्यायातवतया नो रुद्रमृडया। याते रुद्र शिवा तनुरघोरा पापकाशिनी तया नस्तनुवाशन्तमया गिरिशन्ताभिचाकशीः यामि शुङ्गिरिशन्तहस्ते विभश्यस्तवे शिवां गिरित्रतां कुरु माहिगुंसि पुरुषं जगत् शिवेरवचसा त्वा गिरिशाश्चावदामसि यथा नः सर्वमिज्जगत यक्ष्मगुं सुमना असत् अद्यवोच ददि भक्ता प्रथमो दैव्योऽभिषक् अहेगुश्च सर्वाजृम्भयन् सर्वाश्रयातु धान्यः असौ यस्ताम्रो अरुण उत बभ्रुः सुमङ्गलः ये चेमागुं रुद्रा अभितो दिक्षुश्रिताः सहस्रशो वैशागुं हेणहीमहे असव्यो वसर्पति नीलग्रीवो विलोहितः उतैनं गोपा अदृशन्नदृशन्न दहार्यः उतैनं विश्वा भूतानि सदृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीडुषे अथो ये अस्य सत्त्वानोऽहं तेभ्यो करन्नमः प्रमुञ्चदन्वनस्त्वमुभयोरार्नियोर्जा याश्च ते हस्त इषवः प्राता भगवो वपा अवतत्यदनुस्त्वगुं सहस्राक्षशतेषु ते निशीरशल्यानां मुखा शिवो नः सुमना भवा विज्यं दनुः कपर्दिनो विशल्यो बाणवागुम् उता अनेशन्नस्येष व आभुरस्य निषङ्गतिः या ते हेतुर्मे दृष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतस्त्वमयक्ष्मया परिर्भुजा नमस्ते अस्त्वायुधायानाततय धृष्णवे उभाभ्यामुदते नमो बाहुभ्यां तव धन्वने परिते धन्वनो हेतिरस्मान्नृणक्तु विश्वतः अथो य इषुधिष्ठवारे अस्मन्निदेहितम् नमस्ते अस्तु भगवन्विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः। नमो हिरण्यवाहवे सेनान्ये दिशाञ्च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः सस्पिञ्जराय त्रिषीमते पतीनां पतये नमो नमो बभ्रुषाय दिव्यादिनेन्नाधाम् पतये नमो नमो हरिकेशायोपभीतिने पुष्टानां पतये नमो नमो भवस्य हेत्यै जगतां पतये नमो नमो रुद्राय तथा विने क्षेत्राणां पतये नमो नमः सूताय हन्त्याय वनानां पतये नमो नमो रोहिताय स्तपतये वृक्षाणां పదయే నమో నమో మంత్రిణే వాణిజాయ కక్షానా పదయే నమో నమో భువంతయే వారివస్కృతాయౌషధీనా పదయే నమో నమ ఉచ్చైర్ఘోషాయ రంగయతే పత్తీనాం పదయే నమో నమ కృష్ణవీతాయ ధావతే సత్వనాం పదయే నమః నమః సహమానాయ నిర్వ్యాధిన ఆ వ్యాధినీనాం పదయే నమో నమ ककुभाय निषंगिने सेनानां पतये नमो नमो निषंगिन इषुधिमति तस्करानां पतये नमो नमो वंचते परिवंचते स्थायूनां पतये नमो नमो निचेरवे परिचरायारण्यानां పతయే నమో నమశ్రుకాభ్యో జిగారుం సద్భ్యోముష్ణత పతయే నమో నమో శ్రీమద్భ్యో నక్తం చరభ్య ప్రకృంతానాం పతయే నమో నమ ఉష్ణీషిణే గిరిచరాయ కులుంజానాం పతయే నమో నమ ఇషు మధ్యో దన్వావిభ్యశ్చ వో నమో నమ ఆదన్వానేభ్య ప్రతిదానేభ్యశ్చ వో నమో నమ ఆయశ్చద్భ్యో విసృజభ్యశ్చ వో నమో నమోస్యద్భ్యో విద్యద్భ్యశ్చ వో నమో నమ ఆసీనేభ్య శయానేభ్యశ్చ వో నమో నమ స్వపద్భ్యో జాగ్రద్భ్యశ్చ వో నమో నమస్తిష్టద్భ్యో ధావద్భ్యశ్చ వో నమో నమః సభాభ్యః సభాపతిభ్యశ్చ వో నమో నమో అశ్వేభ్యో అశ్వపతిభ్యశ్చ వో నమః నమ ఆవ్యాదినేభ్యో విరుధ్యంతేభ్యశ్చ వో నమో నమ ఉగ్రణాభ్యస్తృగుంహతేభ్యశ్చ వో నమో నమో గృత్సేభ్యో గృత్సపతిభ్యశ్చ వో నమో నమో వ్రాతేభ్యో వ్రాతపతిభ్యశ్చ వో నమో నమో గణేభ్యో గణపతిభ్యశ్చ వో నమో నమో విరూపేభ్యో విశ్వరూపేభ్యశ్చ వో నమో నమో మహద్భ్యః క్షుల్లకేభ్యశ్చ వో నమో నమో రథిభ్యో రథేభ్యశ్చ వో నమో నమో రథేభ్యో రథపతిభ్యశ్చ వో నమో నమః సేనాభ్యః సేనానిభ్యశ్చ వో నమో నమః శత్రుభ్యః సంగ్రహీతృభ్యశ్చ వో నమో నమః రక్షభ్యో రథకారేభ్యశ్చ వో నమో నమః కులాలేభ్యః కర్మారేభ్యశ్చ వో నమో నమః ఉండిష్టేభ్యో నిషాదేభ్యశ్చ వో నమో నమ ఇషుకృద్భ్యో ధన్వకృద్భ్యశ్చ వో నమో నమో మృగయుభ్యశ్వనిభ్యశ్చ వో నమో నమః శ్వభ్యశ్వపతిభ్యశ్చ వో నమః నమో భవాయ చ రుద్రాయ చ నమః శర్వాయ చ పశుపతయే చ నమో నీలగ్రీవాయ చ శితికంఠాయ చ నమః కపర్దినే చ ద్యుక్తకేశాయ చ నమః సహస్రాక్షాయ చ శతధన్వనే చ నమో గిరిశాయ చ శిపిభిష్టాయ చ నమో భీడుష్టమాయ చేషుమతే చ నమో హ్రస్వాయ చ వామనాయ చ నమో బృహతే చ వర్షీయసే చ నమో వృద్ధాయ చ సంవృద్ధ్వనే చ నమో అగ్ర్యాయ చ ప్రథమాయ చ నమ ఆశవే చ జిరాయ చ నమ शीघ्रियाय च शीव्याय च नमः ऊर्म्याय च वस्वन्याय च नमः श्रोतस्याय च द्वेभ्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय चापरजाय च नमो मध्यमाय चापगल्भाय च नमो जघन्याय च बुद्ध्रियाय च नमः सोऽभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च खल्याय च नमः श्लोक्याय चावसान्याय च नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरदाय च नमः शूराय चावभिन्द्रते च नमो वर्मिणे च वरूधिने च नमो भिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय चाहनन्याय च नमो धृष्णवे च प्रभृशाय च नमो धूताय च प्रहिताय च नमो निषङ्गिने चेशुधिमते च नमस्तीक्ष्णेशवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पत्याय च नमः काट्याय च नेप्याय च नमः सूद्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च नमः कूप्याय च वट्याय च नमो वर्ष्याय च वर्ष्याय च नमो मेघ्याय च विद्युत्याय च नमः ईद्रियाय च तप्याय च नमो वात्याय च रेश्मियाय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमस्ताम्राय चारुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वदाय च दूरे वदाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्काराय नमः शम्भवे च मयो भवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमस्तीर्थ्याय च कुल्याय च नमः वार्याय च वार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आतार्याय च लाद्याय च नमः शस्प्याय च फेन्याय च नमः सिकत्याय च रबाह्याय च नमः इरिण्याय च प्रपत्याय च नमः कृगुंशिलाय च क्षयनाय च नमः कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमस्तल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदय्याय च निवेश्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ऊर्म्याय च सूर्म्याय च नमः पर्ण्याय च पर्णसद्याय च नमोपगुरमानाय च विघ्नते च नमः आकिदते च प्रकिदते च नमो वक्किकेभ्यो देवानागुं हृदयेभ्यो नमो विक्षेदकेभ्यो नमो विचिन्वत्केभ्यो नम आनिर्हतेभ्यो नम आमीवत्केभ्यः ద్రావే అందసస్పతే దరిద్రం నీలలోహితాం ఏషాం పురుషాణామేషాం పశూనాం మాభేర్మా రోమో ఏషాం కించనామమత యాతే రుద్ర శివా తను శివా విశ్వాః భేషజే శివా రుద్రస్య భేషజేతయానో మృడ జీవసే ఇమాగుం రుద్రాయ తవసే కపర్దినే క్షయద్వీరాయ ప్రభరామహే మతిం యతా నశ్రమసద్విపదే చతుష్పదే విశ్వం పుష్టం గ్రామే అస్మిన్ననాతురం మృడాలో రుద్రోత నో మయస్కృధి క్షయద్వీరాయ నమసాభిధే మతే యచ్చం చ యోశ్చ మనురాయజే పితా తదశ్యామతవ రుద్ర ప్రణీతో మానో మహాంతముతమానో అర్భకం మాన ఉక్షంతముతమాన ఉక్షితం మానో వదే పితరం మోర మాతరం ప్రియమానస్తనువో రుద్రరేషః మానస్తోకేతన ఏ మాన ఆయుషి మానో గోషు మానో అశ్వేషు రీషః వీరాన్మానో రుద్రభావితో వదే హరిష్మంతో నమసా విధేమతే ఆరాధే గోగ్న ఉత పూరుషగ్నే క్షయద్వీరాయ తుం నమస్మేతే అస్తు రక్షాచనో అదిచ దేవ బ్రూహ్యదాచన శర్మ యచ్చద్విబర్హాః సుహిశ్రుతం గద్దసదం యువానం మృగన్న భీమముపహత్నుముగ్రం మృడాజరిత్రే రుద్రస్తవాను అన్యంతే అస్మన్నివ పంతు సేనాః పరిణో రుద్రస్య హేతుర్వృణక్తు పరిద్వేషస్య దుర్మతిరగాయో అవస్థిరా మగవద్యస్తరుష్వమీద్వస్తోకాయతనయాయ మృడయా మీరుష్టమ శివతమ శివో నః సుమనా భవా పరమే వృక్ష ఆయుధం నిదాయ కృత్తిం వరాన ఆచర పినాకం విభ్రదాగహే వికిరిద విలోహిత నమస్తే అస్తు భగవః యాస్తే సహస్రగుం హేతయో న్యమస్మన్నివ పంతు సహస్రాని సహస్రతా బాహుస్తవ హేతయః తాశామీశానో భగవః పరాచీనా ముఖాకృతి సహస్రాని సహస్రశో యే రుద్రా అధిభూమ్యా తేషాగుం సహస్రయోజనే వదన్వారి తన్వసే అస్మిన్ మహత్యర్ణవే దరిక్షే భవాధి నీలగ్రీవాశ్రితి కంఠా శర్వా అదః క్షమాశరాః నీలగ్రీవాశ్రితి కంఠాదివగుం రుద్రా ఉపశ్రితాః యే వృక్షేషు సస్పింజరా నీలగ్రీవా విలోహితాః యే భూతానామధిపతయో విశిఖాసః కపర్దినః యే అన్యేషు వివిధ్యంతి పాత్రేషు వివరో జనాన యే పతాం పతిరక్షయ ఐలభృదాయభ్యుదః యే తీర్థాని ప్రచరంతి శృకావంతో నిషంగినః య ఏతావంతశ్చ భూయాగుంసశ్చ దిశో రుద్రావితస్థిరే తేషాగుం సహస్రయోజనే వదన్వారి తన్వసే నమో రుద్రేభ్యో ఏ పృథివ్యాం ఏంద ಅಂತರಿಕ್ಷೇ ದೇದಿವಿಯೇಷಾಮನ್ನಂ ವಾತೋ ವರ್ಷಮಿಷಭಸ್ತೇಭ್ಯೋ ದಶ ಪ್ರಾಚೀರ್ದಶ ದಕ್ಷಿಣಾ ದಶ ಪ್ರದೇಶೀರ್ದಶೋ ದೇಶೀರ್ದಶೋರ್ಧ್ವಾಸ್ತೇಭ್ಯೋ ನಮಸ್ತೇ ನೋ ಮೃಡಯಂತು ದೇಯಂ ವಿಶ್ವೋ ಯಶ್ಚ ನೋ ದ್ವೇಷ್ಟಿದಂ ಭೋಜಂ ವೇದಧಾಮಿ ತಯಂಬಗಂ ಯಜಾಮಹೇ ಸುಗಂಧಿಂ ಪುಷ್ಟಿವರ್ಧನಂ ಊರ್ವಾರುಕಮಿವ ಬಂಧನಾನ್ ಮೃತ್ಯೋರ್ಮುಕ್ಷೀಯಮಾಮೃತಾತ್ ಯೋ ರುದ್ರೋ ಅಗ್ನೌ ಯೋ ಅಪ್ಸು ಯೋಷಧೀಷು ಯೋ ರುದ್ರೋ ವಿಶ್ವಾ ಭುವನಾ ಹಿಮೇಷದಸ್ಮೈ ರುದ್ರಾಯ ನಮೋ ಅಸ್ತು ಏತೇ ಸಹಸ್ರಮಯುಧಂ ವಾಶಾ ಮೃತ್ಯೋ ಮರ್ತ್ಯಾಯ ಹಂದವೇ ತಾನ್ಯಜ್ಞಸ್ಯ ಮಾಯಯಾ ಸರ್ವಾನವಯಜಾಮಹೇ ಮೃತ್ಯವೇ ಸ್ವಾಹಾ ಮೃತ್ಯವೇ ಸ್ವಾಹಾ ಪ್ರಾಣಾನಾಂ ಗ್ರಂಥಿರಸಿ ರುದ್ರೋ ಮಾ ವಿಶಾಂತಕಃ ಏನಾನೇನಾಪ್ಯಾಯಸ್ವ ನಮೋ ರುದ್ರಾಯ ವಿಷ್ಣವೇ ಮೃತ್ಯುರ್ಮೇ ಪಾಹಿ ತಮಸ್ತು ಹಿ ಯಸ್ವಿಷು ಸುಧನ್ ವಾಯೋ ವಿಶ್ವಸ್ಯ ಕ್ಷಯತಿ ವೇಷಜಸ್ಯ ಯಕ್ಷ್ವಾ ಮಹೇಶೋ ಮನಸಾಯ ರುದ್ರಂ ನಮೋ ಭಿರ್ದೇವಮಸುರಂ ಧ್ರುವಸ್ಯ ಅಯಂ ಮೇ ಹಸ್ತೋ ಭಗವಾನ್ ಅಯಂ ಮೇ ಭಗವತ್ತರಃ ಅಯಂ ಮೇ ವಿಶ್ವಭೇಷಜೋ ಯಗುಂ ಶಿವಾಭಿಮರ್ಶನಃ ಓಂ ಶಾಂತಿ ಶಾಂತಿ ಶಾಂತಿಃ ಶಂಚ ಮೇ ಮಯಶ್ಚ ಮೇ ಪ್ರಿಯಂ ಚ ಮೇನು ಕಾಮಶ್ಚ ಮೇ ಕಾಮಶ್ಚ ಮೇ ಸೌಮನಸಶ್ಚ ಮೇ ಭದ್ರಂ ಚ ಮೇ ಶ್ರೇಯಶ್ಚ ಮೇ ವಶ್ಯಶ್ಚ ಮೇ ಯಶಶ್ಚ ಮೇ ಭಗಶ್ಚ ಮೇ ದ್ರವಿಣಂ ಚ ಮೇ ಯಂತಾ ಚ ಮೇ ದತ್ತಾ ಚ ಮೇ ಕ್ಷೇಮಶ್ಚ ಮೇ ಧೃತಿಶ್ಚ ಮೇ ವಿಶ್ವಂ ಚ ಮೇ ಮಹಶ್ಚ ಮೇ ಸಂವಿಶ್ಚ ಮೇ ಜ್ಞಾತ್ರಂ ಚ ಮೇ ಸೂಶ್ಚ ಮೇ ಪ್ರಸೂಶ್ಚ ಮೇ ಸೀರಂ ಚ ಮೇ ಲಯಶ್ಚ ಮರುತಂ ಚ ಮೇ ಮೃತಂ ಚ ಮೇ ಯಕ್ಷ್ಮಂ ಚ ಮೇ ನಾಮಯಶ್ಚ ಮೇ ಜೀವಾತುಶ್ಚ ಮೇ ದೀರ್ಘಾಯುತ್ವಂ ಚ ಮೇ ನ ಮಿತ್ರಂ ಚ ಮೇ ಭಯಂ ಚ ಮೇ ಸುಖಂ ಚ ಮೇ ಶಯನಂ ಚ ಮೇ ಸುಶಾಸ ಓಂ ಶಾಂತಿ ಶಾಂತಿ ಶಾಂತಿಃ ಶನ್ನೋ ಮಿತ್ರ ಶಂ ವರುಣಃ ಶನ್ನೋ ಭವದ್ವರ್ಯಮಾ ಶನ್ನ ಇಂದ್ರೋ ಬೃಹಸ್ಪತಿಃ ಶನ್ನೋ ವಿಷ್ಣುರುಕ್ರಮಃ ನಮೋ ಬ್ರಹ್ಮಣೇ ನಮಸ್ತೆ ವಾಯೋ ತ್ವಮೇವ ಪ್ರತ್ಯಕ್ಷಂ ಬ್ರಹ್ಮಾಸಿ ತ್ವಮೇವ ಪ್ರತ್ಯಕ್ಷಂ ಬ್ರಹ್ಮ ವದಿಷ್ಯಾಮಿ ಋತಂ ವದಿಷ್ಯಾಮಿ ಸತ್ಯಂ ವದಿಷ್ಯಾಮಿ ತನ್ಮಾಮವತು ತದ್ಭಕ್ತಾರಮವತು ಅವತು ಮಾಂ ಅವತು ಭಕ್ತಾರಂ ಓಂ ಶಾಂತಿ 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 ವೇದ ಮನೋಚಾಚಾರ್ಯೋ ಅಂತೇ ವಾಸಿನ ಮನುಷಾಸ್ತಿ ಸತ್ಯಂ ವದ ಧರ್ಮಂ ಚರ ಸ್ವಾಧ್ಯಾಯಾನ್ಮಾ ಪ್ರಮದಃ ಆಚಾರ್ಯಾಯ ಪ್ರಿಯಂ ಧನಮಾಹೃತ್ಯ ಪ್ರಜಾತಂತುಂ ಮಾ ವ್ಯವಚ್ಛೇಚ್ಛೆ ಸತ್ಯಾನ್ನ ಪ್ರಮದಿತವ್ಯಂ ಧರ್ಮಾನ್ನ ಪ್ರಮದಿತವ್ಯಂ ಕುಶಲಾನ್ನ ಪ್ರಮದಿತವ್ಯಂ ಭೂತ್ಯೇನ ಪ್ರಮದಿತವ್ಯಂ ಸ್ವಾಧ್ಯಾಯ ಪ್ರವಚನಾಭ್ಯಾನ್ನ ಪ್ರಮದಿತವ್ಯಂ ದೇವಪಿತೃಕಾರ್ಯಾಭ್ಯಾನ್ನ ಪ್ರಮದಿತವ್ಯಂ ಮಾತೃದೇವೋ ಭವ ಪಿತೃದೇವೋ ಭವ ಆಚಾರ್ಯ देवो भव अतिथिदेवो भव यान्यनवद्यानि कर्माणि तानि सेवितव्यानि नो इतराणि यान्यस्माकं सुचरितानि तानि त्वयोपास्यानि नो इतराणि ये के चास्मच्छ्रेयागुंसो ब्राह्मणाः तेषाम् त्वयासनेन प्रश्वसितव्यम् श्रद्धया देयम् अश्रद्धया देयम् श्रिया देयम् ह्रिया देयम् विया देयम् संविदा देयम् अथ यदि ते कर्म विचिकित्सा वा वृत्तविचिकित्सा वा स्यात् एतत्र ब्राह्मणाः सम्मर्षिणः युक्ता आयुक्ताः अलोक्षा धर्मकामाः स्युः यथा ते तत्र वर्तेरन् तथा तत्र वर्तेताः अताभ्याख्यादेशो ये तत्र ब्राह्मणाः सम्मर्षिणः युक्ता आयुक्ताः अलोक्षा धर्मकामाः स्युः यथा ते तेषु वर्तेरन् तथा तेषु वर्तेताः एष आदेशः एष उपदेशः एषा वेदोपनिषत् एतदनुशासनम् एवमुपासितव्यम् एवमुचैतदुपास्यम् शन्नो मित्रश्यम् वरुणः शन्नो भवत्वर्यमा शन्न इन्द्रो बृहस्पतिः शन्नो विष्णुरुरुक्रमः नमो ब्रह्मणे नमस्ते वायो त्वमेव प्रत्यक्षम् ब्रह्मासि त्वामेव प्रत्यक्षम् ब्रह्मावादिशम् ऋतमवादिशम् सत्यमवादिशम् तन्मामावेत् तद्वक्तारमावेत् आवेन्माम् आवेद्वक्तारम् ॐ शान्ति
शान्ति
शान्ति भद्रम् कर्णेभिश्रुणुयाम देवाः भद्रम् पश्येमाक्षभिर्यजत्राः स्थिरैरङ्गैः सुष्ठुवागुंसस्तनोभिः यशेम देवहितम् यदायुः स्वस्ति न इन्द्रो रुद्रश्रवाः स्वस्ति न पूषा विश्ववेदाः स्वस्ति नस्ताशो अरिष्ठनेभिः स्वस्ति नो बृहस्पतिर्ददातु ॐ शान्ति शान्ति शान्तिः अथ सूर्या सर्वाङ्गिरसंव्याख्या श्यामः ब्रह्मा ऋषिः गायत्री छन्दः आदित्यो देवता हंसः सोऽहमग्निनारायणयुक्तम् बीजम् उल्लेखा शक्तिः बृहदादिसर्गसंयुक्तम् कीलकम् चतुर्विधपुरुषार्थसिद्ध्यर्थे विनियोगः षट्स्वरारूढेन बीजेन षडङ्गम् रक्ताम्बुजतम् स्थितम् सप्ताश्वरदिनम् हिरण्यवर्णम् चतुर्भुजम् पद्मद्वयाभयवरदहस्तम् कालचक्रप्रणेतारम् श्रीसूर्यनारायणम् य एवम् वेद स वै ब्राह्मणः ॐ भूर्भुवस्सुवः तत्सवितुर्वरेण्यम् भर्गो देवस्य धीमहि धियो यो न प्रचोदयात् सूर्य आत्मा जगत
ततश्चश्चुचश्च सूर्यान्वैकल्विमानि भूतानि जायन्ते सूर्या यज्ञपर्जन्यो नमात्मा नमस्ते आदित्य त्वमेव प्रत्यक्षं कर्म कर्तासि त्वमेव प्रत्यक्षं ब्रह्मासि त्वमेव प्रत्यक्षं विष्णुरसि त्वमेव प्रत्यक्षं रुद्रोऽसि त्वमेव प्रत्यक्षं मृगसि त्वमेव प्रत्यक्षं यजुरसि त्वमेव प्रत्यक्षं सामासि त्वमेव प्रत्यक्षमथर्वासि त्वमेव सर्वं छन्दोऽसि आदित्याद्वायुर्जायते आदित्याद्भूमिर्जायते आदित्यादापो जायन्ते आदित्याज्योतिर्जायते आदित्याद्व्योमदिशो जायन्ते आदित्याद्देवा जायन्ते आदित्याद्वेदा जायन्ते आदित्यो वा एष एतन्मण्डलम् तपते असावादित्यो ब्रह्मा आदित्योऽन्तःकरणमनो बुद्धिचित्ताहङ्काराः आदित्यो वै व्यानसमानो दानोपानः प्राणः आदित्यो वै श्रोत्रचक्षुरसरघ्राणाः आदित्यो वै वाक्पाणिपादपायोपस्थाः आदित्यो वै शब्दस्पर्शरूपरसगन्धाः आदित्यो वै वचनादानागमनविसर्गानन्दाः आनन्दमयो विज्ञानमयो विज्ञानघन आदित्यः नमो मित्राय भानवे मृत्योर्मा पाहि वैष्णवे विश्वहेतवे नमः सूर्याद्भवन्ति भूतानि सूर्येण पालितानि तु सूर्ये लयम् प्राप्नुवन्ति यः सूर्यसोऽहमेव च चक्षुर्नो देवः सविता चक्षुर्न उत पर्वतः चक्षुर्धाता दधातु नः आदित्याय विद्महे सहस्रकिरणाय धीमहि तन्नः सूर्यः प्रचोदयात् सविता पुरस्तात् सविता पश्चातात् सवितोत्तरातात् सविता धरातात् सविता न सुवतु सर्वता आत्रिगुं सविता नो ओरासताम् दीर्घमायुः ओमित्येकाक्षरम् ब्रह्मा त्रिनिर्दिद्वे अक्षरे सूर्य इत्यक्षरद्वयम् आदित्य इति त्रीण्यक्षराणि एतस्यैव सूर्यस्याष्टाक्षरो मनुः यः सदा हरहर्जपति स वै ब्राह्मणो भवति स वै ब्राह्मणो भवति सूर्याभिमुखो जप्त्वा महाव्याधिभयात् प्रमुच्यते अलक्ष्मीर् नश्यते अभक्ष्यभक्षणात् पूतो भवति अगम्यागमनात् पूतो भवति पतितसम्भाषणात् पूतो भवति असत्सम्भाषणात् पूतो भवति मध्याह्ने सूर्याभिमुखः पठेत् सद्योत्पन्न पञ्चमहापातकात् प्रमुच्यते सैषा सावित्रीम् विद्याम् न किञ्चिदपि न कस्मैश्चित्र संशयेत् य एताम् महाभाग प्रातः पठति स भाग्यवान् जायते पशून् वन्दते वेदार्थम् लभते त्रिकालमेतज्जप्त्वा क्रतुशत फलमवाप्नोति हस्तादित्ये जपति स महामृत्युम् तरति स महामृत्युम् तरति य एवम् वेद इत्युपनिषत् भद्रम् कर्णे विशृणुयाम देवाः भद्रम् पश्येमाक्षभिर्यजत्राः स्थिरैरङ्गैस्तुस्तु वागुंसस्तनोभिः यशेम देवहितम् यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति न पूषा विश्ववेदाः स्वस्ति नस्तार्क्ष्यो अरिष्ठनेमिः स्वस्ति नो बृहस्पतिर्ददातु ॐ शान्ति शान्ति शान्तिः सहनावतु सहनौ भुनक्तु सह वीर्यम् करवावहै तेजस्विनाभधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः अथ पुरुषो ह वै नारायणो कामयत प्रजासृजे येति नारायणात् प्राणो जायते मनः सर्वेन्द्रियाणि च कं वायुर्ज्योतिराप पृथिवी विश्वस्य धारिणी नारायणात् ब्रह्मा जायते नारायणात् रुद्रो जायते नारायणादिन्द्रो जायते नारायणात् प्रजापतय प्रजायन्ते नारायणात् द्वादशादित्या रुद्रावसवः सर्वाणि च छन्दागुंसि नारायणादेव समुत्पद्यन्ते नारायणे प्रवर्तन्ते नारायणे प्रलीयन्ते ॐ अथ नित्यो नारायणः ब्रह्मा नारायणः शिवश्च नारायणः शक्रश्च नारायणः द्यावा पृथिव्यौ च नारायणः कालश्च नारायणः दिशश्च नारायणः ऊर्ध्वश्च नारायणः अधश्च नारायणः अन्तर्बहिश्च नारायणः नारायण एवेदगुं सर्वम् यद्भूतम् यच्च भव्यम् निष्कलो निरञ्जनो निर्विकल्पो निराख्यात शुद्धो देव एको नारायणः न द्वितीयोऽस्ति कश्चित् य एवम् वेद स विष्णुरेव भवति स विष्णुरेव भवति ओमित्यग्रे व्याहरेत् न इति पश्चात् नारायणायेत्युपरिष्टाद् ओमित्येकाक्षरम् नम इति द्वे अक्षरे नारायणायेति पञ्चाक्षराणि एतद्वै नारायणस्याष्टाक्षरम् पदम् यो ह वै नारायणस्याष्टाक्षरम् पदमध्येति अनपब्रुवः सर्वमायुरेति विन्दते प्राजापत्यगुम् रायस्पोषम् गौपत्यम् ततो मृतत्वमश्नुते ततो मृतत्वमश्नुत इति य एवम् वेद प्रत्यगानन्दम् ब्रह्म पुरुषम् प्रणवस्वरूपम् अकार उकारमकार इति तानेकधा समभर तदेतदोमिति यमुक्त्वा मुच्यते योगी जन्म संसार बन्धनात्। ॐ नमो नारायणायेति मन्त्रोपासकः वैकुण्ठभुवनलोकम् गमिष्यति यदिदम् परम् पुण्डरीकम् विज्ञानघनम् तस्मात्तदिदावन्मात्रम् ब्रह्मण्यो देवकी पुत्रो ब्रह्मण्यो मधुसूदनो सर्वभूतस्तमेकम् नारायणम् कारणरूपमकारपरब्रह्म एतदथर्वशिरो योधीते प्रातरधीयानु रात्रिकृतम् पापम् नाशयति सायमधीयानो दिवसकृतम् पापम् नाशयति माध्यम् दिनमादित्याभिमुखो धीयान् पञ्चपातकोपपातका प्रमुच्यते सर्ववेदपारायण पुण्यम् लभते नारायण सायुज्यमवाप्नोति नारायण सायुज्यमवाप्नोति य एवम् वेद इत्युपनिषत् सहना भवतु सहनौ भुनक्तु सह वीर्यम् करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः गणानाम् त्वा त्वा गणानाम् गणानाम् त्वा गणपतिम् गणपतिम् त्वा गणानाम् गणानाम् त्वा गणपतिम् त्वा गणपतिम् गणपतिम् त्वा त्वा गणपतिगुम् हवामहे हवामहे गणपतिम् त्वा त्वा गणपतिगुम् हवामहे गणपतिगुम् हवामहे हवामहे गणपतिम् गणपतिगुम् हवामहे कविम् कविगुम् हवामहे गणपतिम् गणपतिगुम् हवामहे कविम् गणपतिमिति गणा हवामहे कविम् कविगुम् हवामहे हवामहे कविम् कवीनाम् कवीनाम् कविगुम् हवामहे हवामहे कविम् कवीनाम् कविम् कवीनाम् कवीनाम् कविम् कविम् कवीनामुपमश्रवस्तममुपमश्रवस्तमम् कवीनाम् कविम् कविम् कवीनामुपमश्रवस्तमम् कवीनामुपमश्रवस्तममुपमश्रवस्तमम् कवीनाम् कवीनामुपमश्रवस्तमम् उपमश्रवस्तममित्युपमश्रवः तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणाम् ज्येष्ठराजम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणो ब्रह्मणो ब्रह्मणाम् ज्येष्ठराजम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणः ज्येष्ठराजमिति ज्येष्ठ राजम् शान्ति शान्तिः स्वस्तिर्प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीमहिषाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्तिः
देवानन्दनम् गजाननम् ಕೋಟಿ ಪ್ರಣಾಮ ಕೋಟಿ ಪ್ರಣಾಮ ಶತ ಕೋಟಿ ಪ್ರಣಾಮ
ಸಾಯಿ ಗೋಪಾಲ ಸಾಯಿ ಗೋಪಾಲ
शत कोटि प्रणाम। गोविंद बोलो गोपाल बोलो
Oh, जगत्पति महेश्वर ॐ जय जगदीश हरे शिवदना शीतना सर्वा प्राणपते स्वामी सर्वा प्राणपते आश्रित कल्पन सीता आश्रित कल्पन सीता
समस्त लोका